गडानान्त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् देवाश्चित्ते असृजप्रचेतसो बृहस्पते जग्जिजम् भागमानशः उस्रा इव सूर्यो ज्योतिषामहो विश्वेशामिज्जनिता ब्रह्मणामसि आभिबाध्या परिरापस्तमांसि च ज्योतिष्मन्तम् रथमृतस्य तिष्ठसि बृहस्पते भीममित्रदम्भनम् रक्षोहणम् गोत्रभिदम् स्वरभिदम् सुनीतिभिर्नजसि त्राजसे च नञ्जस्त्वभ्यन्ताशान्नतमम् हो अश्नवत ब्रह्मद्विषस्तपनो मञ्जमीरसि बृहस्पते महितत्ते महित्वनम् नतमम् हो न दुरितम् कुतश्च न नारातजस्तिरुर्नद्वजा विनाः विश्वा इतस्माध्वरसो विबाधसेजम् स गोपारक्षसि ब्रह्मणस्पते त्वन्ना गोपाः पथिकृद्विचक्षणस्तवौ व्रताजमतिभर्जरामहे बृहस्पते जो न अभिह्वरो दधे स्वातम् मर्त्वदुच्छनाहरस्वति उत भाजो न मर्त्यजादनागसोरातीवामर्तः सानुकावृगाः बृहस्पते अपतम् वर्तयापथः सुगन्नो अस्यै देववीतजे गृधे त्रातारम् पातनो नाम् हवामहेवस्पर्तरधिभक्तारमस्मजम् बृहस्पते देवनिधो निबर्हजमादुरे वा उत्तरम् सुम्नमुन्नशन् त्वया वयम् सुवृधा ब्रह्मणस्पते स्वारहावसुमनुष्याददीमहि यानो दूरे तणितो जा अरातजोऽभिसन्ति जम्भजाता अनप्नसाः त्वया भजमुत्तमन्धे महे भजो बृहस्पते पप्रिणासस्ति नायुजा मानो दुःशंस अभिदिप्सुरेशदप्रसुशंसा मतिभिस्तारिषीमहि अनानुदो वृषभो जग्मिराहवन्निष्टप्ता शत्रुम् व्रतनासु सा सहिः असि सत्यर्णजा ब्रह्मणस्पत उग्रस्य चित्तमिता वीळु हर्षिणाः अदेवे न मनसा जोरिषण्यतिशासामुग्रो मन्यमानो जिघांसते बृहस्पते मा प्रणक्तस्य न वधो निकर्म मञ्जन्दुरेवस्य शर्धदः भरे सुहव्यो नमसोपसद्यो गन्तापादेषु सनिता धनम् धनम् विश्वा इधर्यो अभिदिप्स्वो मृधो बृहस्पतिर्विवर्हारथाम् इव तेजिष्ठजातपने रक्षसस्तपजे त्वा निदेदधिरे दृष्टवीर्यम् आविस्तत्कृष्वजदसत्त उक्थ्या अम् बृहस्पते विपरिरापो अर्दज बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्देदयच्छवसरत प्रजातदस्मासुद्रविणन्धेः चित्राम् मानस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवान्नेषु जागृधुः आदेवानामोहते विव्रजो हृदि बृहस्पते न परः साम्नो विदुः विश्वेभ्योहितामवनेभ्यस्परित्वष्टाजनत्साम्नः कविः सरडचिद्रडजाद्ब्रह्मणस्मदर्द्रुहो हन्ता बहरतस्य धर्तरे तव श्रिजेऽप्यजिहीत पर्वतो गवाम् गोत्रमुदसृजो जदङ्गिरः इन्द्रेण युजातमसा परीव्रतम् बृहस्पते निरपामोऽब्जो अर्णवम् ब्रह्मणस्पते त्वमस्य जन्ता सूक्तस्य बोधितनजम् च जिन्व विश्वम् तद्भद्रम् यदवन्ति देवा बृहद्वदेम विदधे सुवीराः